ॐ सद्गुरुभ्यो नमः। अस्य श्रीबुधस्तोत्रमहामन्त्रस्य वसिष्ठर्षि अनुष्ठुप् छन्दः बुधो देवता बुधप्रीत्यर्थे जपे विनियोगः ध्यानम् भुजैश्चतुर्भिर्वरदा अभयासि गतावसन्तम् सुमुखम् प्रशान्तम् पीतप्रभम् चन्द्रसुतम् सुरेड्यम् सिंहे निषण्णम् बुधमाश्रयामि पीताम्बर पीतवभू पीतध्वजरथस्थितः पीयूषरश्मितनयः पातु मां सर्वदा बुधः सिंहवाहं सिद्धनुतं सौम्यं सौम्यगुणान्वितं सोमसूनुं सुराराध्यम् सर्वदा सौम्यमाश्रये बुधं बुद्धिप्रदातारं बाणबाणासनोज्ज्वलं भद्रप्रदं भीतहरं भक्तपालनमाश्रये आत्रेयगोत्रसंजातम् आश्रितार्तिनिवारणम् आदितेयकुलाराध्यम् आशुसिद्धिदमाश्रये कलानिधितनूजातम् करुणारसवारिधिम् कल्याणदायिनं नित्यम् कन्याराश्याधिपं भजे मन्दस्मितमुखाम्भोजम् मन्मथायुतसुन्दरम् मिथुनाधीशमनघम् मृगाङ्गदनयं भजे चतुर्भुजम् चारुरूपम् चराचरजगत् प्रभुं चर्मखड्गधरं वन्दे चन्द्रग्रहतनुल्भवं पञ्चास्यवाहनगदं पञ्चपादकनाशनं पीतगन्धं पीतमाल्यं बुधं बुधदनं भजे बुधस्तोत्रमिदं गुह्यं वसिष्ठेनोदितं पुरा यः पठेत् शृणुयात्वापि सर्वाभीष्टमवाप्नुयात् श्रीबुधस्तोत्रं सम्पूर्णम्।